एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री सुशीला कार्की निगदति हिमालयीय जनपदेषु उच्च पर्वतीय जनपदेषु च अस्यैव फाल्गुन मासस्य एकविंशे दिवसे एव निर्वाचनं कर्तुं सम्भवोऽस्ति। हिमालय क्षेत्रस्य जनपदेषु निर्वाचनस्य पूर्वसज्जतायाः सुरक्षा व्यवस्थायाः भौगोलिक समाहोयस्य च विषये स्थलगतं निरीक्षणं कर्तुं ह्य सोलुखुम्बु जनपदे भोजपुर जनपदे च प्राप्तया प्रधानमन्त्रिणा कार्किणा सर्वेष्वपि हिमालयीय जनपदेषु उच्च पर्वतीय जनपदेषु च फाल्गुन मासस्य एकविंशे दिवसे एव निर्वाचनं सम्पादयितुं शक्यते इत्युक्तं वर्तते। केनापि व्याजेन निर्वाचनम् अपसारयितुं न शक्यते इति कथयन्त्या प्रधानमन्त्रिणा कार्किणा निष्पक्षे शान्ते भयरहिते च वातावरणे निर्वाचनम् भविष्यति इति विषये निश्चिन्ततया स्थातुं मतदातृभ्य राजनीतिक दलेभ्य प्रत्याशिभ्यश्च आग्रह कृत अस्ति। तदवसरे सौहार्दपूर्ण वातावरणे निर्वाचनं सम्पादयितुं सर्वकारस्य सम्पूर्णं ध्यानं केन्द्रितम् अस्ति इति चर्चयन्ती प्रधानमन्त्री कार्की आत्मनः सर्वमपि ध्यानं निर्वाचन सम्पादनाय केन्द्रीकर्तुमपि सम्बद्धान् सर्वान् निकायान् निरदिशत्। प्रधानमन्त्री कार्की ह्य कोशी प्रदेशस्य विभिन्नानां जनपदानां निर्वाचन सम्बद्ध अधिकारिभिः सुरक्षा प्रमुखैश्च सह निर्वाचनस्य पूर्व कार्यस्य वस्तुस्थितिर्विषये जिज्ञासितवती अस्ति। निर्वाचनायोगेन निर्वाचने नागरिक शिक्षायाः प्रवर्धनाय स्रोत सामग्र्यः निर्मिताः सन्ति। लोकतन्त्रं निर्वाचनं समावेशिता मतदातृनामावली मतदानं च इत्यादीन् विषयान् संहत्य स्रोत सामग्र्यः निर्मिताः सन्तीति निर्वाचनायोगस्य सहायक प्रवक्ता कुलबहादुर जोशी असूचयत्। प्रतिनिधिसभायाः निर्वाचनस्य कृते प्रत्यक्ष प्रणाल्याः चतुर्विंशत्युत्तरैकशत निर्वाचन क्षेत्राणाम् एककोटि सप्तपञ्चाशल्लक्ष्याणि अष्टसप्तति सहस्राणि च मतपत्राणि मुद्रितानि सन्तीति निर्वाचनायोगेन ज्ञापितम् वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन राष्ट्रसभायाः अधिवेशनस्य अन्त्यं विहितमस्ति। मन्त्रिपरिषदः परामर्शेन संविधानस्य त्रिनवतितम धारायाः द्वितीयोपधारायाः अनुसारेण राष्ट्रपतिना पौडेलेन अद्य रात्रौ द्वादशवादनात् क्रियान्वयनत्वेन राष्ट्रसभायाः अधिवेशनस्य अन्त्यं विहितमस्ति इति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा रितेश कुमार शाक्येन प्रकाशितायां विज्ञप्तौ उल्लिखितम् वर्तते। ततः पूर्वं गत सोमवासरे उपविष्टेन मन्त्रिपरिषदः उपवेशेन राष्ट्रसभायाः अधिवेशनस्य अन्त्यं कर्तुं राष्ट्रपतेः समक्षं परामर्शं निर्णीतम् आसीत्। राष्ट्रसभायाः अधिवेशनं गत माघ मासस्य चतुर्थ दिवसे प्रारब्धम् आसीत्। विश्व रेडियो दिवस अद्य नेपालेपि विविधै कार्यक्रमैस्सह आयोज्यमानोऽस्ति। संयुक्त राष्ट्रसंघस्य आह्वाने द्वादशोत्तर द्विसहस्रतमात् ख्रीष्टाब्दात् विश्व रेडियो दिवस समायोज्यमानोऽस्ति। नेपाले त्रिउत्तर द्विसहस्रतमे विक्रमाब्दे रेडियो नेपालस्य प्रसारणं आरब्धं सदपि औपचारिकतया सप्तोत्तर द्विसहस्रतमस्य वैक्रमाब्दस्य मार्गशीर्ष मासस्य अष्टाविंश दिवसात् प्रजातन्त्र रेडियो इति नाम्ना रेडियो सञ्चालन सेवा प्रारब्धा आसीत्। दैलेख जनपदस्य भैरवी ग्रामपालिकायाः प्रथम वडा क्षेत्रे जलजले स्थाने सप्तति कोट्यधिक अशीति अब्ज घनमीटर परिमितस्य पाचनेन्धनवायोः भण्डारणम् अस्ति इति पुष्टिभूता वर्तते। चीनदेशस्य चाइना जियोलोजिकल सर्वे इति संस्थया ह्य नेपाल सर्वकाराय अर्पितस्य अन्तिमान्वेषण प्रतिवेदनस्य अनुसारेण जलजले स्थाने तावतः परिमाणस्य पाचनेन्धनवायोः आकर भण्डारणमस्ति इति पुष्टिभूता वर्तते। चीनदेशस्य संस्थया विस्तृताध्ययनानन्तरं तथ्याङ्कोऽयं सार्वजनीकृतः अस्ति इति आकर भूगर्भ विभागस्य प्रवक्ता धर्मराज खड्का असूचयत्। इतः पूर्वं प्रकाशिते प्रारम्भिके प्रतिवेदने तस्मिन् क्षेत्रे द्वादश कोट्यधिकै काब्ज घनमीटर परिमितः पाचनेन्धनवायुः अस्ति इति तथ्याङ्कः प्रकाशितः आसीत्। अधुना अधिक परीक्षणेन अन्तिमाध्ययनेन च पूर्वानुमानस्य अपेक्षया अधिक परिमाणे पाचनेन्धनवायु अस्ति इति निष्कर्षः निष्कासितो वर्तते इति च प्रवक्ता खड्का असूचयत्। नेपाल सर्वकारस्य चीनदेशस्य संस्थायाश्च मध्ये अब्जद्वयस्य चत्वारिंशत कोटिनांश प्राविधिक सहयोगे पेट्रोलियमेन्धनस्य अन्वेषणाय सहमतिर्धृता आसीत्। सहमतिरनुसारेणैव चीनदेशस्य संस्थया अन्वेषणं सम्पन्नं विहितमस्ति। अधिकार दुरूपयोग अनुसन्धान आयोगेन सर्लाही जनपदस्य बागमती नगरपालिकायां विद्यमानस्य भरत तडागस्य निर्माणस्य क्रमे भ्रष्टाचार सम्भूतोऽस्तीति आरोपे नगरपालिकायाः प्रमुखेण उपप्रमुखेण च सहितानां त्रयोदश जनानां विरूद्धे आरोपपत्रं पञ्जीकारितमस्ति। अधिकार दुरूपयोगानुसन्धान आयोगेन ह्यः पञ्जीकारिते याचिका निवेदने त्रयोदश जनान् प्रतिवादिनो विधाय अष्टपञ्चाशत् कोटिनां द्वाषष्टिर्लक्षाणां चतुर्दश सहस्राणां च रूप्यकाणां हानिवित्तमभियाच्य अभियोगपत्रं पञ्जीकारितमस्तीति ज्ञापितं वर्तते। क्रिकेट क्रीडायाः टी20 प्रारूपस्य स्पर्धायाः अन्तर्गतं ह्यः क्रीडितायां क्रीडायां नेपालः इटालीदेशेन पराजितोऽस्ति।